उत्तप्त हेमरुचिरां रविचन्द्रवह्नि नेत्रां धनुश्चरयुताङ्कुशपाशशूलम् अरम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां कामेश्वरीं हृदि भजामि धृतेन्दुलेखाम्। ॐ ऋषिरुवाच निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसंमितं हन्यमानं बलं चैव शुम्भ क्रुद्धो ब्रवीद्वज बलावलेप दुष्टे त्वं मा दुर्गे गर्वमावह अन्यासां बलमाश्रित्य युद्धभेत्यातिमानिनी। देव्युवाच एकैवाहं जगत्यत्र द्वितीया काममापरा पश्यैता दुष्टमय्येव विशन्त्यो मद्विभूतयः। ततस्तमस्तास्ता देव्यो ब्रह्माणि प्रमुखालयं तस्या देव्यास्तनौ जग्मुरेकैवासीत् तदाम्बिका। देव्युवाच अहं विभूत्या बहुभिर्हरेरुपरिदास्थिता तत्संहृतं मयैकैवातिष्ठां व्याजौ स्थिरो भव। ऋषुवाच ततः प्रववृते युद्धं देव्या शुम्भस्य चोभयोः पश्यतां सर्वदेवानामसुराणां च दारुणं शरवर्षैश्च दैश्यस्त्रैः तथास्त्रैश्चैश्च दारुणः। तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् दिव्याञ्जस्त्राणि शतशो मुमुजेयान्यथाम्बिका बभञ्जतानि दैत्येन्द्रस्तत्वतीघातकर्तृभिः मुक्तानि तेन शास्त्राणि दिव्यानि परमेश्वरी बभञ्जलीलयैवोग्रहुङ्कारोच्चारणादिभिः ततःशरसदैदेवीमाच्छादयतसोऽसुरः सापि तत्कुपिता देवी धनुतिच्छेदचेषुभिः छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथा ददे तिच्छेददेवी चक्रेण तामप्यश्चकरे स्थिताम्। ततः खड्गमुपादाय शतचन्द्रं च भानुमत् अभ्यधावत्तदा देवीं दैत्यानामधिरेश्वरः तस्यापततयैवासु खड्गं चिच्छेदचण्डिका। धनुर्मुक्तैश्चैर्बाणैश्चर्म चार्ककरामलम् हताश्चस्तदादैश्चन्नधन्वावतारथि जग्राहमुद्गरं घोरमम्बिका निधनोद्यतः चिच्छेदापतदस्तस्य मुद्गरं निहितैश्चरैः। तथा विशो भयावत्तां मुष्टिमुद्यम्य वेगवान् समुष्टिं पातयामासा हृदये दैत्यपुङ्गवः। देव्यास्तं चापि सा देवी तलेनोरस्य ताडयत् तलप्रहाराभिहतो निपपातमुहैतले तदैत्यराजः सहसा पुनरेवत्थोत्थितः उत्पत्ति च प्रभृत्थोच्चै देवीं गगनमास्थितः तत्रापि सा निराधारा युधेतेन चण्डिका। नियुद्धं खेतदा दैत्यश्चण्डिका च परस्परम् चक्रदुःप्रथमं सिद्धमुनि विस्मयकारकम् ततो नियुद्धं सुचिरं कृत्वा नयनाम्बिका सह उत्पाच्य भ्रामयामास शिक्षेप धरणीतले सक्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगितः अभ्यदावद दुष्टात्मा चण्डिका निधयेच्छया। समायान्तं ततो देवी सर्वदैत्यजनेश्वरं जगत्यां पातयामास भित्त्वा शूलेन वक्षति सकदासुस्वपातोर्व्यां देवी शूलाग्रवीक्षतः चालयन् सकलां पृथ्वीं साध्वीद्वीपां सपर्वताम्। ततः प्रसन्नमखिलं हते तस्मिन्द्रात्मनि जगत्स्वास्थ्यमतीवापा निर्मलं चाभवन्नभ उत्पादमेघा सोल्काये प्रागा संस्थे समं ययुः हरितो मार्गवाहिन्यः तथा संस्थत्रपादिरे ततो देवगणाः सर्वे हर्षनिर्भरमानसाः बभूवुर्निहते तस्मिन् गन्धर्वालितं जघु अवादयन् स दैवाञ्जे निर्दृश्चाप्सरोगणाः बभुः पुण्या सदा वाता सप्रभूभूधिवाकरः जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्मनाः। ॐ इति श्रीमार्कण्डेय पुराणे सावण्यके मन्मन्त्रे देवी महात्ये दशमोऽध्यायः।